द्व्याशीतोत्तर द्विसहस्रतमस्य नूतन विक्रम वर्षस्य शुभावसरे सकल श्रोतृन् विज्ञापनदातृन् शुभेच्छुकान् अशेष नेपालिन्यश्च प्रति सार्वजनिक सेवा प्रसारणम् रेडियो नेपालः हार्दिम मंगलमयम् शुभकामनाम् अभिव्यनक्ति। एषा रेडियो नेपालः सम्प्रति समाचाराः श्रूयन्ताम्। प्रवाचकः उपेन्द्र दाहालः। नेपाल पञ्चाङ्गानुसारेण अद्य प्रवृत्ति द्व्यशीत्युत्तर द्विसहस्रतमो वैक्रम संवत्सर समारब्धो वर्तते। विक्रम वर्षस्य प्रथमे दिवसे नेपालीभिः परस्परं शुभकामनादान प्रदानाभ्याम् नववर्षस्य स्वागतं विधीयमानमस्ति। सूर्यस्य मीन राशेः भोगं परिसमाप्य मेषराशौ प्रवेशस्य दिवसः वैशाख संक्रान्तित्वेन संगृह्यते इति मान्यता। वैशाख मासस्य संक्रान्ति एव नेपाले नूतन वर्षत्वेन मन्यते। सौरमानस्य चान्द्रमानस्य च समन्वयेन निर्मितः संवत्सरः एव विक्रम संवत् अस्ति। विक्रमस्य अर्थ पराक्रमः, आदित्यस्य अर्थ सूर्यश्चेति सूर्योपासकेनैव प्रारब्धत्वात् संवत्सरोऽयं विक्रम संवत्सरः इति नाम्ना व्यवह्रियते इति नेपाल पञ्चाङ्ग निर्णायक विकास समित्या ज्ञापितमस्ति। कलियुगारम्भस्य चतुश्चत्वारिंशदधिक त्रिसहस्र वर्षानन्तरं विक्रम संवत्सरः प्रारब्धः अस्ति इति मन्यते। अत्रान्तरे राष्ट्रपतिः रामचन्द्र पौडेलः नववर्षारम्भावसरे सर्वेभ्यः जनेभ्यः सुखस्य, शान्तेः, समृद्धेः, सुस्वास्थ्यस्य, भ्रातृत्वस्य, एकतायाः, सर्वमुखविकासस्य, प्रगतेश्च कृते शुभकामनाम् प्रायच्छत्। एवमेव उपराष्ट्रपतिना रामसहाय प्रसाद यादवेन नववर्षारम्भे शुभकामनां प्रयच्छता नववर्षमिदं अभूतपूर्वायै राष्ट्रियैकतायै सर्वेभ्यः प्रेरणां प्रयच्छतुः इत्युक्तं वर्तते। एवमेव प्रधानमन्त्रिणा केपी शर्मा ओलिना च सर्वेभ्यः नेपालजनेभ्यः शुभकामनां प्रयच्छता अस्मिन् वर्षे सर्वैः नेपालीभिः देशस्य नवनिर्माणाय, सुशासनाय, समृद्धये योगदानम् कर्तव्यं भवतीति उक्तं वर्तते। द्व्यशीत्युत्तर द्विसहस्रतमस्य नूतन विक्रम वर्षस्य शुभावसरे सभामुखेन देवराज घिमिरेभिदेन, राष्ट्रिय सभायाः अध्यक्षेण नारायण प्रसाद दाहालेन, नेकपा माओवादी केन्द्रस्य अध्यक्षेण पुष्पकमल दाहालेन, मन्त्रिपरिषद पूर्वाध्यक्षेण खिलराज रेग्मिणा, पूर्वराजेन ज्ञानेन्द्र शाहेन च स्वदेशे विदेशेषु च विद्यमानान् सर्वान् नेपालिनः प्रति सुख शान्तिं च प्रकाम्य हार्दिम मंगलमयी शुभकामना अभिव्यक्ता वर्तते। द्व्यशीत्युत्तर द्विसहस्रतम वैक्रमस्य वर्षस्य आगमनेन सहैव देशस्य पर्यटन क्षेत्रेषु पर्यटकानाम् उपस्थितिः वर्धमाना वर्तते। पर्यटकानाम् गमनागमनेन सहैव देशस्य अर्थतन्त्रमपि गतिशीलं जायमानमस्ति। देशस्य प्रमुखेषु पर्यटकीय स्थलेषु आन्तर पर्यटकानाम् सघना उपस्थिति जायमानास्ति। वीरगंज नगरे ह्या उपविष्टेन सर्वदलीयोपवेशेन शान्ति सुरक्षायां व्यवधानं नकर्तुं, सामाजिक सद्भावं व्यवस्थापयितुं च सर्वे अनुरुद्धाः सन्ति। हनुमत जयन्त्याः अवसरे गत शनिश्चरवासरे शोभायात्रायाः क्रमे उत्पन्नायाः परिस्थितेः अनन्तरं राजनीतिक दलानां प्रतिनिधीनां ह्य उपविष्टेन उपवेशेन स्थानीयाः संघ संस्थाः समुदायाश्च शोभायात्रा पिधानादि गतिविधिन् न कर्तुं कारयितुं च अनुरुद्धाः वर्तन्ते। अत्रान्तरे पर्सा जनपद प्रशासन कार्यालयेन वीरगंज महानगर क्षेत्रे क्रियान्विता निषेधाज्ञा रविवासरस्य मध्यरात्रितः अपाकृता वर्तते। पर्सा जनपदस्य प्रमुखाधिकारी गणेश अरियालः रविवासरस्य मध्यरात्रेः द्वादशवादनात् निषेधाज्ञा अपाकृतास्तीति असूचयत। नेपाली कांग्रेस दलस्य सभापतिः शेरबहादुर देउवा देशे सामाजिक सद्भावं स्थापयितुं मुस्लिम समुदायेन निर्विवडायाः भूमिकायाः प्रशंसां करोति। दलस्य भातृ संस्थया नेपाल मुस्लिम संघस्य केन्द्रीय समित्या ह्य ललितपुरे आयोजिते इदमिलन कार्यक्रमे द्व्यशीत्युत्तर द्विसहस्रतम विक्रम वर्षस्य अवसरे आयोजिते शुभकामना दान प्रदान कार्यक्रमे सभापतिः देउवा सामाजिक सद्भावं स्थापयितुं दलं सबलं विधातुं च मुस्लिम समुदायेन निर्विडायाः भूमिकायाः प्रशंसाम् अकरोत्। प्रधानमन्त्रिणा केपी शर्मा ओलिना झापा जनपदस्य गौरादह नगर चिकित्सालयस्य ह्य शिलान्यास विहितोऽस्ति। नगरपालिकायाः प्रथमवडा क्षेत्रे आयोजिते कार्यक्रमे चिकित्सालयस्य शिलान्यासं विदधानः प्रधानमन्त्री ओली निर्मीयमाणेन चिकित्सालयेन स्थानीयै सह प्रतिवेशिनः भारतस्य नागरिकेभ्योऽपि उपचारे सौविध्यं भविष्यतीति अगदत्। प्रधानमन्त्री ओली आवश्यकतायाः आधारेण चिकित्सालयस्य सेवायाः विस्तारः विधातुं शक्यते इति चर्चयन् सूचनायाः प्रविधेश्च उपयोगेन सर्वकारः प्रत्येकं क्षेत्रेषु स्वास्थ्यसेवां प्रापयितुं क्रियाशीलोऽस्तीति प्रावोचत्। नेकपा माओवादी केन्द्रस्य अध्यक्ष पुष्पकमल दाहाल प्रचण्डः जनतायाः समस्यां प्रति केन्द्रितं भवितुं सर्वकारम् अनुरुणद्धि। ह्यः चितवन जनपदे पत्रकारै सह भाषमाणः अध्यक्ष प्रचण्डः द्व्यशीत्युत्तर द्विसहस्रतम विक्रम वर्षे नवीन संकल्पेन सह अग्रेसर्तुं सर्वाणि राजनीतिक दलानि प्रति अनुरोधं विदधान् देशस्य आवश्यकतायाः अनुसारेण अग्रेसरणाय नवसंकल्पस्य आवश्यकतां प्रादर्शयत्। संचार सूचना प्रविधि मन्त्री पृथ्वी सुब्बा गुरूङ कथयति देशं राजनीतिक रूपेण स्थिरं विधाय आर्थिकोन्नयनस्य मार्गे अग्रेसरं कारयितुं वर्तमान सर्वकार क्रियाशीलो वर्तते। राईनाश नगरपालिकाया द्वितीय वडा क्षेत्रस्य भलायखर्क स्वास्थ्य केन्द्रस्य भवनस्य उद्घाटनं पूर्वेद्युः विदधानः सर्वकारस्य प्रवक्ता च मन्त्री गुरूङ देशजनतयो हितं केन्द्रे संस्थाप्य सर्वकारेण कार्यं विधीयमानमस्तीति असूचयत्। मकवानपुर जनपदस्य मनहरी ग्रामपालिकायाः पञ्चमवडा क्षेत्रवर्तिनी दिल्लीपुर स्थाने ह्यो दिवा वज्रपातेन एको जना मृतोऽस्ति द्वौ जनौ आहतौ च वर्तेते। मृतकः अष्टाविंशति वर्षीय अविरल थिङ वर्तते इति प्रहरिणा ज्ञापितमस्ति। झञ्झावातेन सह जलवर्षण समये मार्गे गच्छतः थिङ इत्यस्य वज्रपातेन घटनास्थले एव मृत्युः जातोऽस्तीति प्रहरिणा ज्ञापितमस्ति। भक्तपुरे विष्का यात्रायाः क्रमे भैरवनाथस्य रथेन संघर्षणात् एको जनः मृतोऽस्ति। भक्तपुर नगरपालिकाया चतुर्थवडा क्षेत्र निवासी षट्त्रिंशत् वर्षीय सुतिल तमखु रथस्य अधनिपत्य रथस्य संघर्षणेन मृत्यु वर्तते इति समाचारः।